इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। उत्तराखण्ड राज्यस्य राजधान्यां देहरादून नगरे ह्यः सायंकाले प्रधानमन्त्रिणा नरेन्द्र मोदिना 38तमायाः राष्ट्रिय क्रीडायाः उद्घाटनं कृतम्। देश विदेशाभ्यां क्रीडकाः उत्साहपूर्णे एथलीट परेड इत्येतस्मिन् भागम् अगृह्णन्, ऐक्यपूर्णां च क्रीडां प्रदर्शयन्। ओलम्पिक क्रीडकः लक्ष्यसेनः प्रधानमन्त्रिणं नरेन्द्र मोदिनं प्रति दीपं प्रददात्। स्वस्य भाषणे प्रधानमन्त्रिणा उत्तराखण्डस्य देवभूमौ राष्ट्रिय क्रीडायाः आयोजनस्य विषये गौरवः प्रकटितः। एतद्धि राज्यस्य कृते ऐतिहासिकं दिव्यं च क्षणम् इति असौ अवोचत्। एताः राष्ट्रिय क्रीडाः हरितक्रीडाप्रकाररूपेण आयोज्यन्ते इति सः अवधानं दत्तवान्। येन हि भारतस्य पारम्परिकक्रीडाः अपि आचर्यन्ते तथा च सुस्थिरतायाः प्रोत्साहनं भवति। भारतस्य विकासकथायां क्रीडायाः महत्वं प्रकाशयन् प्रधानमन्त्री अवोचत् यत् भारतं क्रीडां स्वस्य विकासयात्रायाः अभिन्नभागरूपेण पश्यति। देशः क्रमेण तृतीयां बृहत्तमाम् आर्थिकशक्तिं भवितुम् अपि प्रवर्तते। गणतन्त्रदिवसस्य भागरूपेण बीटिंग रिट्रीट इति समारोहः अद्य नवदिल्ल्याः विजयचौक इत्यत्र भविष्यति। अत्रावसरे राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः जगदीप धनखडः, प्रधानमन्त्री नरेन्द्र मोदी, रक्षामन्त्री राजनाथ सिंहः, अन्ये च केन्द्रीय मन्त्रिणः उपस्थिताः भविष्यन्ति। दिल्ल्यारक्षिबलेन बीटिंग द रिट्रीट इत्येतस्मै समारोहाय यातायातप्रबन्धनं व्यापकं कृतम्। प्रकाशितदिङ्निर्देशानुसारि विजयचौक मार्गः अद्य मध्याह्ने द्विवादनतः रात्रौ सार्धनववादनं यावत् सामान्य गमनागमनाय पिहितो भविष्यति। अपि च विजयचौक सी हेक्सागॉन इत्यनयोः मध्ये कर्तव्यपथे यातायातं प्रतिबन्धितं भविष्यति इति सूच्यते। उत्तरप्रदेशे तीर्थराजे प्रयागराजे अद्य मौनी अमावास्यायाः पवित्रावसरे द्वितीयम् अमृतस्नानं श्रद्धालुभिः समाचर्यते। मौनी अमावास्या धार्मिकदृष्ट्या महत्वपूर्णा वर्तते। अस्मिन् शुभावसरे कृतामृतस्नानं शुभदायकं भवतीति मन्यते। विश्वस्य बृहत्तमे अनुष्ठाने महाकुम्भे प्रथमम् अमृतस्नानम् अस्य मासस्य चतुर्दशदिनांके मकरसंक्रान्तेः शुभावसरे जातम्। त्रयोदशसंख्यकैः अखाडासमूहैः स्वनिर्धारितसमयस्य क्रमस्य च सूचनाः प्रदत्ताः। मौनी अमावस्यायाः पवित्रावगाहनम् अन्वीक्ष्य उत्तरप्रदेशप्रशासनेन सप्तस्तरीया सुरक्षायोजना क्रियान्विता। अपि च महाकुम्भस्य मेलकक्षेत्रं वाहननिषेधक्षेत्रं नातिविशिष्टजनक्षेत्रत्वेन उद्घोषितम्। केन्द्रराज्यप्रशासनयोः निष्ठया समर्पितानि आरक्षिबलानि, यातायातारक्षबलानि च चिकित्सकाश्च तत्र आपत्कालिकस्थितये नियुक्ताः सन्तीति। निर्वाचनायोगेन आपदलसंयोजकाय अरविन्द केजरीवालाय व्यपदिष्टम्। ध्यातव्यमस्ति यत् केजरीवालेन एकस्मिन् साक्षात्कारावधौ भाजपा कांग्रेसदलाभ्यां यमुना नद्यां विषस्य मिश्रणस्य आरोपः प्रख्यापितः। आयोगेन श्रीकेजरीवालेन अस्मिन् प्रसंगे सायं 8 वादनात् प्राक् साक्षैः सह उपस्थापनाय निर्दिष्टम्। आयोगेन दिल्ली जलबोर्ड इत्येतस्य प्रतिवेदनमपि अवलोकितम् यस्मिन् यमुना नद्यां कस्यापि प्रकारकस्य विषस्य उल्लेखः नैव लिखितः। पुरुषाणां क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ गुजरातस्य राजकोटनगरे 20-20 मालिकायाः तृतीये अन्ताराष्ट्रिय द्वन्द्वे इंग्लैण्डदलेन भारतीयदलं 26 धावनांकैः पराजितम् इति वार्ताः।